अद्य नर्यो देवका म उषन्निन्द्रस्य सख्यं जुजोष को वा महेवसे पार्या यसमिद्धे अग्नौ सुदसो म ईट्टे को नाना मम च सा सोम्याजमनाजुर्वा भवति वस्त उस्राः क इन्द्रस्य युज्यङ्गः सखित्वम् को भ्रात्रम् वष्टिकवजे क ऊति को देवानाम वो अद्यावृडीते क आदित्याङ्गदितिम् ज्योतिरीट्टे कस्याश्विनामिन्द्रो अग्निस्वतस्यांशाः पिबन्ति मनसा विवेनम् तस्मा अग्निर्भारत शर्मजम् सज्जोक् पश्यात् सूर्यमुच्चरन्दम् य इन्द्राय सुनभामेत्याह नरे नर्या जनृतमाज नृणाम् न तञ्जिनन्ति बहवो न दभ्रा उर्वस्मा अदितः शर्मजम् सत् प्रियः सुकृत् प्रिय इन्द्रे मनाजः प्रियः सुप्रावेः प्रियो अस्य सोमी सुप्राव्यः प्राशुषालेश वीरः सुष्वेः भक्तिम् कृणुते केवलेन्द्राः न सुष्वेरापिर्न सखा न जामिर्दुष्प्राव्यो वहन्ते दवाचः न रेवता पणिना सख्यमिन्द्रो सुन्वता सुदपाः सङ्गृणीते आस्य वेदः खिदति हन्ति नग्नम् विसुष्वजे भक्तजे केवलो भूत इन्द्रम् परे वरे मध्यमा स इन्द्रम् जान्तो वसिता स इन्द्रम् इन्द्रम् क्षयन्त उत युध्यमाना इन्द्रन्नरो वाजयन्तो हवन्ते